मध्योद्भवे भुवः इलावृतनाम् निवर्षे गौरी प्रधान वनिता जनमात्रभाजी शर्वेण मंत्रनुतिभिः समुपास्यमानं संकर्षणात्मकं अधीश्वर संश्रये त्वां भद्राश्वनामक इलावृतपूर्ववर्षे भद्रश्रवोभिः ऋषिभिः परिणूयमानं कल्पांतगूढ निगमोद्धरण प्रवीणं ध्यायामि देव हयशीर्षतनुं भवन्तं ध्यायामि दक्षिणगते हरिवर्षवर्षे प्रह्लादमुख्यपुरुषैः परिषेव्यमानं उत्तुङ्गशान्तधवलाकृतिं एकशुद्धज्ञानप्रदं नरहरिं भगवन् भवन्तं वर्षे प्रतीचि ललितात्मनिकेतुमाले लीलाविशेष ललितस्मितशोभनाङ्गं लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्याः प्रियाय धृतकामतनुं भजे त्वां रम्येऽपि उदीचि खलु रम्यकनां निवर्षे तद्वर्षनाथ मनुवर्यसपर्यमाणं भक्तैकवत्सलम् अमत्सरहृत्सुभान्तं मत्स्याकृतिं भुवननाथ भजे भवन्तं वर्षे हिरण्मयसमाह्वयम् औत्तराहम् आसीनम् अद्रिधृतिकर्मठकामठाङ्गं संसेवते पितृगणप्रवरोर्यमायं तं त्वां भजामि भगवन् परिचिन्मयात्मन् किञ्च उत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महितमन्त्रनुतिप्रभेतैः दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा त्वं पाहि विज्ञनुत यज्ञवराहमूर्ते यां यां दिशं भजति किं पुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा सीताभिराम परमाद्भुतरूपशाली रामात्मकः परिलसन् परिपाहि विष्णो श्रीनारदेन सह भारतखण्डमुख्यैः त्वं साङ्ख्ययोगनुतिभिः समुपास्यमानः आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसखः परिपाहि भूमन् प्लाक्षेर्करूपम् अयि शाल्मले इन्दुरूपं द्वीपे भजन्ति कुशनामनि वह्निरूपं क्रौञ्चेम्बुरूपम् अथ वायुमयञ्च शाके त्वां ब्रह्मरूपम् अयि पुष्करनाम्नि लोकाः सर्वैः ध्रुवाधिभिः उडुप्रकरैर्ग्रहैश्च पुच्छादिकेषु अवयवेषु अभिकल्प्यमानैः त्वं शिंशुमारवपुषा महतामुपास्य सन्ध्यासु रुन्धि नरकं मम सिन्धुशायिन् पातालमूलभुवि शेषतनुं भवन्तं लोलैककुण्डलविराजि सहस्रशीर्षं नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्जुष्टं भजे हरगतान् गुरुगेहनाथ ॐ तत्सदिति श्रीमन्नारायणीये एकविंशं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।